नमसर्वेभ्यः अद्यतनविषयः अस्ति निमित्तकारणतायाः अन्यत् उदाहरणं। तस्मात् आरभ्य अस्माभिः पठनीयं। किन्तु तस्मात् पूर्वस्मिन् वर्गे किं पठितम् इति स्मरामि। स्नेहस्य पिण्डीभावं प्रति निमित्तकारणम् इति साधितं। तत्र कार्यथावच्छेदकसम्बन्धः स्वाश्रयसंयुक्तत्वम् इत्युक्ते जलं स्नेहः समवायेन जले अस्ति, जलेन सह पिष्टराशिः संयुक्तः अस्ति, तर्हि परम्परारूपेण पिष्टे स्नेहः अस्ति। पिण्डिभावनिष्ठकार्यता अवच्छेदकसम्बन्धः समवायः, एकत्र समवायसम्बन्धः, कार्यता अवच्छेदकसम्बन्धः, कारणतावच्छेदकसम्बन्धात् स्वाश्रयसंयुक्तत्वम् इति। तर्हि समवायकारणं न भवितुमर्हति, प्रथमं वा द्वितीयं वा असमवायकारणमपि न भवितुमर्हति। तर्हि स्नेहः पिण्डीभावं प्रति निमित्तकारणम् इति साधितम्। अस्मिन् विषये प्रश्नः अस्ति वा? अस्तु, अग्रे गच्छामः। तर्हि रामप्रिया भगिनी, निमित्तकारणतायाः तस्मात् आरभ्य पठितुमिच्छति वा? इत्थमेव
इदानीं पुस्तके एव महोदय,
पुस्तके किञ्चित् पठित्वा मध्ये किञ्चित् तस्मात् करपत्रम् आगच्छति मध्ये।
पुटसङ्ख्या किं महोदय?
115।
अस्तु।
निमित्तकारणतायाः अन्यत् उदाहरणम्। इत्थमेव च चक्रदण्डादीनां घटं प्रति कारणत्वं निरूपणीयं। तत्र घटस्य समवायेन अधिकरणे कपाले चक्रस्य संयोगेन एव सत्त्वात् निमित्तकारणत्वं। दण्डस्तु कपाले परम्परासम्बन्धेन भवति। स च परम्परासम्बन्धः स्वजन्यभ्रमिजन्यभ्रमिमत्तारूपः। दण्डं यदि संयोगेन कपाले स्थापयामः कपालः नश्येत्। किन्तु चक्रे विद्यमानं यत् छिद्रं तत्र दण्डं संस्थाप्य दण्डभ्रमणे सति तत् संयोगवशात् चक्रे अपि भ्रमिः भ्रमणम् उत्पद्यते। तेन च भ्रमणेन कपाले अपि भ्रमणम् उत्पद्यते। अतः स्वजन्यभ्रमिः चक्रनिष्ठभ्रमिः, तज्जन्याभ्रमिः कपालनिष्ठाभ्रमिः, तादृशभ्रमिमत्ता कपाले इति अनेन परम्परासम्बन्धेन दण्डः समवायीकारणे स्थित्वा घटं कार्यं जनयति इति इहापि अन्य एव सम्बन्धः कार्यकारणभावघटकः। अतः दण्डः घटं प्रति न समवायीकारणं नापि असमवायीकारणं किन्तु निमित्तकारणम्। अत्र निमित्तकारणस्य अन्यत् उदाहरणम् इति दत्तमस्ति। यत्र चक्रदण्डादीनां घटं प्रति कारणत्वं निरूपणीयं, घटं प्रति चक्रदण्डः केन कारणेन अस्ति इति इदानीं वयं निरूपयामः। तत्र घटस्य समवायेन अधिकरणे कपाले इत्युक्ते घटः इति कार्यं समवायेन कपाले इति कार्याधिकरणं कपालः, चक्रस्य संयोगेन एव सत्त्वात् चक्रम् अपि कारणमस्ति। चक्र संयोगेन सत्त्वात् इत्युक्ते केन सह संयोगः? संयोगेन सत्त्वात् कारणतः घटचक्रयोः वा?
सत्यं,
घटचक्रयोः संयोगः अस्ति, संयोगेन सत्त्वात्
चक्रोपरि घटं चक्रस्य घटचक्रयोः
अस्ति।
अस्तु, तदपि अस्ति।
कपालः
अत्र घटस्य कपाले चक्रस्य भवितुमर्हति, कपालस्य चक्रस्य संयोगेन. अस्तु, हा तद् कपालचक्रयोः संयोगेन.
कपाले चक्रस्य कपालचक्रयोः संयोगेन सत्त्वात् निमित्तकारणत्वम् निमित्तकारणत्वं भवति. समवायेन घटः समवायेन कपाले अस्ति, कपालः इति अधिकरणं कार्याधिकरणं, चक्रः चक्रकपालयोः मध्ये संयोगः संयोगसम्बन्धः अस्ति. इत्युक्ते चक्रः इति कारणम् इति कारणेन कारणता अवच्छेदकसम्बन्धः संयोगः किल, निमित्तकारणत्वम्, अतः एव निमित्तकारणत्वं चक्रस्य.
अत्र महोदय प्रायः संयोगः चक्रदण्डयोः मध्ये इति, समवायेन कपाले अस्ति, कपालं तु संयोगेन चक्रे अस्ति, चक्रदण्डयोः मध्ये संयोगः अस्ति इति कृत्वा दण्डे घटकार्यं प्रति निमित्तकारणत्वम् आपतति इति.
किन्तु दण्डविषये तु अग्रे अग्रिमवाक्ये आगच्छति. इदानीम् अत्र केवलं चक्रमपि निमित्तकारणं, दण्डः अपि निमित्तकारणं, द्वयमपि निमित्तकारणम् अस्मिन् वाक्ये केवलं चक्रस्य विवरणम् अस्ति, दण्डः कथम् अस्ति इति इतोपि अग्रे किञ्चित् विषयः अस्ति तत्र. साक्षात् कपालचक्रयोः संयोगः अस्ति, चक्रे चक्रस्य मध्ये कपालं तिष्ठति, यस्मिन् अधिकरणे घटः उत्पद्यते, तर्हि तादृशसंयोगः अस्ति, तादृशनिमित्तकारणत्वम् अपि चक्रे अस्ति.
आमाम्, अत्र अस्मिन् वाक्ये चक्रस्य निमित्तकारणं चक्रकपालयोः मध्ये यत् सम्बन्धः संयोगसम्बन्धः अस्ति तेन निरूपितं भवति.
अस्तु, मम अवधानमपि.
आमां, सत्यं सत्यं, यद्भवता उक्तं सत्यम्.
अतः चक्रस्य निमित्तकारणम् अस्ति इति प्रथमं. दण्डस्तु कपाले परम्परासम्बन्धेन भवति. अतः द्वितीयमस्ति दण्डविषये, तत्तु परम्परासम्बन्धेन कपाले भवति. कथम् इति, स च परम्परासम्बन्धः स्वजन्य भ्रमिजन्य भ्रमिमत्तारूपः इति, यद् दण्डकपालयोः मध्ये तस्य विवरणम् अस्ति इति.
कथमस्ति अग्रे अग्रे विवृतम् अस्ति.
दण्डं यदि संयोगेन कपाले स्थापयामः कपालः नश्यति. इत्युक्ते यदा वयं दण्डं स्वीकृत्य तद् कपाले संयोगेन दण्डकपालयोः मध्ये संयोगसम्बन्धः अस्ति, तत्र यदा सा स्थापयामः चेत् तत्र कपालस्य नष्टं भवति. किन्तु चक्रे विद्यमान
दण्डकपालयो संयोगसम्बन्धः न भवेत्, घटं प्रति न भवेत्. सामान्यरूपेण दण्डः यदि कपाले ताडयामः तत्र कपालः नश्येत्, तादृशसंयोगसम्बन्धः न भवितुम् अर्हति घटं प्रति कारणं, तत्र किमपि न साधितम्.
यदा भवति चेत् तस्य नाशं भवति कपालस्य.
तर्हि तादृशसम्बन्धः अस्माभिः न इच्छामः.
किन्तु चक्रे विद्यमानं यत् छिद्रं तत्र दण्डं संस्थाप्य दण्डभ्रमणे सति, यदा वयं चक्रे यद् छिद्रम् अस्ति तत्र वयं दण्डं स्थापयामः चेत् तत्र दण्डभ्रमणे सति तत् संयोगवशात् चक्रे अपि भ्रमिः भ्रमणम् उत्पद्यते. अत्र यदा छिद्रे चक्रं संस्थाप्य दण्डभ्रमणं भवति चेत् तत्र संयोगवशात् इत्युक्ते चक्रदण्डयोः संयोगवशात् चक्रे अपि ब्रह्म
भगिनि दण्डं चक्रे स्थाप्यते भवता
चक्रभ्रमणं
दण्डेन चक्रभ्रमणं
दण्डेन चक्रभ्रमणम् आम् चक्रे अपि भ्रमिः भवति भ्रमणं भवति इत्युक्ते प्रथमं दण्डं संस्थाप्य संयोगवशात् चक्रे अपि तद् भ्रमणं जनयति इति
आरम्भे दण्डं प्रयुज्य एकं भ्रमणं कुर्मः हस्तेन क्रिया कुर्मः तत् दण्डभ्रमणेन चक्रे अपि भ्रमिः आगच्छति यतोहि तयोः संयोगः अस्ति दण्डचक्रयोः
तेन च भ्रमणेन कपाले भ्रमणम् उत्पद्यते यदा यदा दण्डभ्रमणम् अनन्तरं चक्रभ्रमणं दण्डभ्रमणं चक्रभ्रमणम् उत्पद्यते तद्भ्रमणं तु कपालभ्रमणम् उत्पद्यते तद्भ्रमणेन कपालभ्रमणम् उत्पद्यते
किमर्थं कथं कपाले भ्रमणम् उत्पद्यते चक्रभ्रमणेन कपालापि चक्रेण
संयुक्तः
कपालापि संयुक्तः तत्र मध्ये
अतः तत्रापि भ्रमणम् उत्पद्यते अतः स्वजन्यभ्रमिः चक्रनिष्ठभ्रमिः स्वजन्य इत्युक्ते स्व इति दण्डः दण्डजन्यभ्रमिः दण्डजन्यभ्रमिः इत्युक्ते चक्रनिष्ठभ्रमिः चक्रे भ्रमिः उत्पद्यते इति कारणात् चक्रनिष्ठभ्रमिः तज्जन्या भ्रमिः कपालनिष्ठभ्रमिः इदानीं तज्जन्या भ्रमिः इत्युक्ते यदा चक्रनिष्ठभ्रमिः भवति चक्रेण जन्या भ्रमिः तत्तु कपालनिष्ठभ्रमिः तादृशभ्रमिमत्ता कपाले इति अनेन परम्परासम्बन्धः तादृशभ्रमिमत्ता कपाले इत्युक्ते यद् भ्रमिः यद् भ्रमिः चक्रेण भवति
आरम्भे दण्डेन कपाले
आम् प्रथमं दण्डेन अनन्तरं तदेव चक्रभ्रमी जनयति तत् चक्र भ्रमी एव कपालभ्रमिः जनयति तादृशभ्रमिमत्ता कपाले
भ्रमिमत्ता इत्युक्ते किं कीदृशं पदं भ्रमिमत्ता
तत् मतुप् प्रत्ययः किल भ्रमिमत्ता
कपालः भ्रमिमान्
कपालः भ्रमिमान्
चक्रं भ्रमिमत् लघुपुंसकलिङ्गं कपालः पुल्लिङ्गं
चक्रम् आं भ्रमिमत् तृतीया विभक्तौ अस्ति किल भ्रमिमत्
न मत्वमिति भवती उक्तवती मत्वं भ्रमिमत्वं धर्मः
भ्रमिमत्वं कपाले अस्ति इति
भ्रमिमत्ता इत्युक्ते सुन्दरता सौन्दर्यं तथा भ्रमिमत्ता भ्रमित्वं भ्रमिमत्वं कपाले अस्ति इति अनेन
परम्परासम्बन्धेन दण्डः समवायकारणेन स्थित्वा घटं कार्यं जनयति अतः एतद् स्वजन्यभ्रमिजन्यभ्रमिमत्तारूप परं सम्बन्धेन दण्डः समवायीकारणे स्थित्वा काटम् इति कार्यं जनयति इह अपि अन्य एव सम्बन्धः कार्यकारणभावघटकः एतद् अन्यसम्बन्धः यद् कार्यकारण भावविषये यत् यत् स्वजन्यभ्रमिजन्यभ्रमिमत्ता रूपसम्बन्धः इति अन्यसम्बन्धः अस्ति कार्यकारणभावविषये. अतः दण्डः घटं प्रति न समवायिकारणं न अपि असमवायिकारणं परन्तु निमित्तकारणम् अस्ति.
अत्र स्वजन्यभ्रमिजन्यभ्रमिमत्तारूपसम्बन्धः कार्यतावच्छेदकसम्बन्धः वा कारणतावच्छेदकसम्बन्धः वा?
स्व इति दण्डः, दण्डः इति कारणम् अस्ति इत्युक्ते कारणेन सह इति द्वितीयविधसम असमवायिकारणसम्बन्धः किल.
भवती इदानीम् उक्तवती समवाय असमवायकारणं नास्ति,
निमित्तकारणं निमित्तकारणमेव
किन्तु सम्बन्धः सम्बन्धः अवच्छेदकः कारणतः अवच्छेदकसम्बन्धः तत्र यत् लिखितं दण्डजन्य भ्रमिजन्य भ्रमिमत्तारूपसम्बन्धः. किमर्थं दण्डः कारणमिति अस्माभिः अपेक्षितं न वा? कार्यं घटं कार्यतावचेतकसम्बन्धः समवाय एव कपाले. दण्डः कारणम् अस्ति, कीदृशसम्बन्धः कारणतावचेतकसम्बन्धः इत्युक्ते तादृश स्वजन्यभ्रमिजन्य इति
कारणतावचेतकसम्बन्धः.
अस्तु, अग्रे सरला भगिनी पठति वा? अनन्ताहि
अनन्ताहि कार्यकारणभावा न प्रत्येकं परीक्षितुं शक्याः. समवाय आदीन बुद्ध्वा ऊहापोहकुशलैः तत्र तत्र कार्यविवेकः इति अलं प्रसक्ता अनुप्रसक्तविचारेण कार्यकारणभावः अनन्तः अस्ति, किन्तु प्रत्येकं वयं न परिशीलं शक्नुमः. समवाय आदीना भूत्वा
किमर्थम् अनन्ताः?
अनन्ता यथा समवायिकारण असमवायिकारण असमवायिकारणस्य प्रथमविध द्वितीयविध निमित्तकारण निमित्तकारणं बहवः भवितुं शक्नुवन्ति. साधारण असाधारणकारण कारणानि अपि सन्ति. सो अनन्त कार्यकारणभावः सन्ति.
यथा विश्वे बहवः बहूनि कार्याणि सन्ति तथा तेषां कारणं तु भवेत् तर्हि भिन्नाः भवितुम्. अपि च महोदयेन उक्तं यत् एकः घटः अस्ति, तत् तं प्रति एकः दण्डः कारणं, किन्तु बहवः घटाः सन्ति, तत्र भिन्नभिन्नदण्डाः तस्य कारणं तस्मात् अपि वक्तुं शक्नुमः यत् यथा यतोहि विश्वे अनन्ताः कार्याणि सन्ति तथाविधकार्यकारणभावः अपि अधिकाः. तत्र न परीक्षितुम् अस्माभिः समयः नास्ति, अवकाशः अपि नास्ति. तर्हि
समवाय आदीना बुद्ध्वा ऊहापोहकुशलैः तत्र तत्र कार्यः विवेकः इति अलं प्रसक्तानुप्रसक्ताविचारेण ऊहापोहकुशलैः ऊहां कल्पना कर्तुं शक्नुमः. ये पण्डिताया न्यायिकाहारै ऊहापोहकुशलैः तैः कार्यं प्रति कानि कारणानि सन्ति तस्य विचारं चिन्तित्वा कार्यविवेकः इति अलम्
ऊहापोहकुशल इत्युक्ते किम्? ऊहापोह
ऊहा इति पण्डितैः अहं चिन्तयामि.
किन्तु ऊहा अपोहा इत्युक्ते किम्? ऊहः
कल्पना
चिन्तनम् ऊहः अप ऊहः इत्युक्ते विवादः वादः विवादः
अस्तु
एकं चिन्तनं विरोधचिन्तनं भिन्नचिन्तनं भिन्नभिन्नचिन्तनेन ऊहा अपौहः तद् विरुद्धं किम् अस्ति वा इति मनसि ते चिन्तयेत् ये कुशलाः ते एकम् एकं स्वीकृत्य तस्य परिशीलं परीक्षा कुर्वन्ति एवं भवितुम् अर्हति वा एवं भवति चेत् किं भवति तत्र प्रतिपक्षी किमपि वक्तुं शक्यते वा इति भिन्नभिन्नं चिन्तनं तत् सम्यक् अस्ति वा चिन्तनम् इति तस्य परीक्षा आवश्यकः सम्यक् चिन्तनं भवेत् चेत्
इति अलं प्रसक्ता अनुप्रसक्ता विचारेण प्रसक्त अस्ति अस्माकं पिण्डीभावविचार अनुप्रसक्तविचार अस्ति दण्डघटयो कार्यकारणभाव इति किं किम् अस्ति पिण्डीभावदण्डचक्रयोः इति विचारं कार्यकारणभाव प्रति अलम् अस्ति इति
अत्र अग्रे किमपि न वक्तव्यं किमर्थं चेत् तत्र बहु किमपि अस्ति तत्र
उदाहरणे अलम् अस्माकं चिन्तनं प्रति
समवायकारणम् असमवायकारणमित्तकारणमिति चिन्तनम् अभवत् अस्माभिः तादृशं ज्ञानम् उपयुज्य अग्रे स्वचिन्तनीयं कुर्वन्ति पण्डिताः इति
प्रकृतम् अनुसरामः सिद्धा एतावता पिण्डीभावं प्रति स्नेहस्य निमित्तकारणता स च स्नेहजलमात्रवृत्ति नान्यस्य कस्यचित् द्रव्यस्य संयोगे सति ईदृशपिण्डीभावसम्भाव्यते घृततैलादिसंयोगे सति तथाविद इव अनुभूयमानोऽपि घृतादौ विद्यमानेन जलांशे नैव इति अन्वयव्यतिरेकाभ्यां जलमात्रवृत्तित्वं तत्कारणस्य स्नेहस्य अवधारयामः प्रथमं प्रकृतम् अनुसरामः अस्माकं प्रकृति विषयः अस्ति पिण्डीभावः तस्य उदाहरणं कृत्वा आवां चिन्तयामः सिद्धा एतावता पिण्डीभावः प्रति स्नेहस्य निमित्तकारणं वयं गतसप्ताहे पठितवन्तः पिण्डीभावं प्रति स्नेहनिमित्तकारणम् अस्ति वयं कारणकि स्नेह अस्ति जलं समवाये सम्बन्धेन किन्तु पिण्डीभावं प्रति कारणतावच्छेदकसम्बन्धः अस्ति स्व आश्रयत्वसंयुक्तसम्बन्ध तत् भवति निमित्तकारणं पिण्डीभावं प्रति स्नेहस्य निमित्तकारणता वयं दृष्टवन्तः पूर्वं स च स्नेह जलमात्रवृत्ति कारणं कि स्नेह केवलं जले अस्ति स्नेहस्य स्नेह जलनिष्ठ केवलं भवति नापि कोऽपि द्रवे स्नेहगुण तिष्ठ अस्ति विद्यमानत्वं केवलं जले अस्ति स्नेहस्य न अन्यस्य कस्यचित् द्रव्यस्य संयोगे सति ईदृशपिण्डीभावः कोऽपि अन्यद्रव्य यथा वायो अग्नि वा सति तत् पृथ्वी तत् संयोगे कदापि पिण्डीभावः न आगच्छति कारणं कि स्नेहस्य वृत्ति केवलं जले अस्ति घृत तैल आदि संयोगे सति तथाविद इव अनुभूयमानो अपि घृतादौ विद्यमानेन जलांशे नैव इति अन्वयव्यक्तिरेकाभ्यां जलमात्रवृत्तित्वं तत्कारणस्य स्नेहस्य अवधारयामः यदि वयं पिण्डीभाव घृत वा तैल उप पिष्टे घृत वा तैलसंयोग यदि भवति पिण्डीभाव वयं पश्यामः तत्र अनुभवपिण्डीभावस्य अनुभव भवति तस्य कारणं जलम् एव अस्ति. कारणं कि जलस्य किञ्चित् अंश घृते वा तैले अस्ति. तर्हि पिण्डीभाव घृते वा तैले दृष्टम् अस्ति. सो यथा अन्वयव्यक्तिरेखाभ्याम् अन्वय अस्ति अन्वय तत् सति तत् सत्त्वम् अव्यक्तिरेक तत् असते न सत्यं. यदि जलम् अस्ति स्नेह भवति, घृते जलम् अस्ति तथै तदा यदा घृते जलम् अस्ति तदा घृत यदि पिष्टे संयोगः भवति पुण्डीभाव दृष्टं भवति. यदि जले यदि घृते जलम् अंश नास्ति तत् पिण्डीभाव न द्रष्टुं शक्नुमः. सो अन्वयव्यक्तिरेखाभ्याम् इति अनुमाने जलमात्रवृत्तित्वं वयं साधयामः.
अस्तु, अत्र अस्मिन् वाक्ये अन्तिमवाक्यं यद् भवत्या पठितं तस्य अर्थे एव करपत्रम् अस्ति. सप्तादशमकरपत्रम् अन्वयव्यतिरेकाभ्यां तत्र शुकवान् महोदय पठितुमिच्छति वा करपत्रं?
अस्तु, अन्वयव्यतिरेकाभ्यां पिण्डीभावकारणस्य स्नेहस्य जलमात्रवृत्तित्वं विद्याधर्याम् अस्ति. पृष्ठसङ्ख्या षोडशाधिकशततमपुटे इत्यस्मिन् सिद्धा एतावता पिण्डीभावं प्रति स्नेहस्य निमित्तकारणता, स च स्नेहः जलमात्रवृत्तिः, न अन्यस्य कस्यचित् द्रव्यस्य संयोगे सति ईदृशः पिण्डीभावः सम्भाव्यते. घृततैलादिसंयोगे सति तथाविध इव अनुभूयमानोऽपि घृतादौ विद्यमानेन जलांशेनैव इति अन्वयव्यतिरेकाभ्यां जलमात्रवृत्तित्वं तत्कारणस्य स्नेहस्य अवधारयामः. यथा जलादौ गन्धप्रतीतिर्जायते, किन्तु जलादौ गन्धप्रतीतिः कुत्र भवति? पृथिवीसम्बद्धसत्त्वे पृथिवीसम्बद्धसत्त्वे एव जलादौ गन्धपृथिवी प्रतीतिसत्त्वं. पृथिवीसम्बन्धाभावे च गन्धप्रतीत्यभावः, इदम् अन्वयव्यतिरेकम्. अन्वयव्यतिरेकाभ्यां जले गन्धस्य प्रतीतिः अस्ति. अनेन अयं गन्धः पृथिव्याः एव इति कथनसामर्थ्यम् उत्पद्यते. अनेन च ज्ञायते जले गन्धो नास्ति. जले पृथिवी न दृश्यते, किन्तु जले गन्धः अस्ति चेत् तस्मिन् जले पृथिव्याः भागः अस्ति इति मन्तव्यम् इति अस्मिन् परिच्छेदे भिन्न उदाहरणं स्वीकृतं. तत्र जलौ जले गन्धप्रतीतिः, प्रतीतिः इत्युक्ते ज्ञानं, गन्ध जले गन्धः अस्ति इति अस्माकम् अनुभवे अस्ति. किन्तु वयं जानीमः गन्धः तु पृथिवी मात्र गन्धस्य पृथिवीमात्रवृत्तित्वम् अस्ति इति वयं जानीमः. किन्तु इदानीं जले गन्धस्य अनुभवः अस्ति, तत् कथम् इति चिन्तने सति तत्र पृथिवीसम्बद्धसत्त्वे एव जलादौ गन्धपृथिवीसत्त्वम् इति सिद्धान्तः. तत्र पृथिव्याः अंशः जलेन मिश्रणं भवति चेदेव जले गन्धः भवितुम् अर्हति. पृथिवीसम्बद्धम् अस्ति चेत् जल जलपृथिव्योः मध्ये क्षम्यतां जले पृथिवीसम्बद्धम् अस्ति चेत् एव जले गन्धप्रतीतिसत्त्वम् अस्ति. पृथ्वी सम्बद्धं जले पृथिवीसम्बद्धं नास्ति चेत् गन्ध प्रतीतिः अपि न भवति इति कृत्वा अत्र अन्वय व्यतिरेकम् अस्ति. यत्सत्त्वे यत्सत्त्वं पृथिवीसम्बद्धसत्त्वे गन्धप्रतीतिसत्त्वम् इति अन्वयं, पृथिवीसम्बन्ध अभावे गन्धप्रतीति अभावः इति व्यतिरेकम्. इदानीं तादृशतर्कम् अन्वयव्यतिरेकम् उपयुज्य जले यत् गन्धस्य प्रतीतिः अस्माभिः अनुभूतं तत् पृथिव्याः न तु जलस्य इति ज्ञातुं शक्यते.
किन्तु केवलं गन्धपृथिवी स्वीकृत्य वयं जानीमः गन्धः अस्ति चेत् पृथिवी भवेत् इति अन्वयः, पृथिवी नास्ति चेत् गन्धः न भवति इति व्यतिरेकः. व्याप्यः अस्ति व्यापकः भवेत्, व्यापकः नास्ति व्याप्यः अपि नास्ति इति
सत्यं.
तदेव तु उपयुज्य जले पृथिवीसम्बन्धः भवेत् इति साधितम्.
आम् आम् अग्रे प्रकृतविषये यदा चिन्तनं क्रियते तदा सर्वप्रथमं स्नेहः जले एव इति साध्यते. स्नेहः जले एव अस्ति, अन्यत्र स्नेहः नास्ति इति. किन्तु तैलादौ अपि पिण्डीभावजनकत्वम् अस्ति, पिण्डीभावश्च स्नेहं विना न सम्भवति. अनेन तैलये जलांशः अस्ति इति सिद्ध्यति. तैलादौ यः स्नेहः वर्तते सः तु जलस्य एव. इदानीं प्रकृतविषयं तु स्नेह इति गुणस्य विषये वयं चिन्तयन्तः स्मः. तत्र स्नेहस्य जलमात्रवृत्तित्वम् अस्ति इति सिद्धान्तितम् अस्माभिः. किन्तु तैले अपि स्नेहत्वम् अस्माभिः अनुभूयते एव. तत् कथम्? इदानीं तैलं तु द्रव्यं न तु पार्थिवं, तैलं तु पार्थिवं न तु जलीयम् इति वयं जानीमः. स्नेहः जले एव अस्ति इति चेत् कथं वा पार्थिवतैले स्नेहस्य अनुभवम् इति पृष्टे सति तत्रापि यथा पूर्वं तत्र जले गन्धः गन्धस्य अनुभवं भवति चेत् तत्र पृथिवीसम्बन्धेन एव इति अन्वयव्यतिरेकम् उपयुज्य वयं निश्चितवन्तः. तादृशम् अत्रापि इत्युक्ते तैले अपि जलांशस्य मिश्रणम् अस्ति, अतः एव तैले स्नेहः अस्माभिः अनुभूयते इति ज्ञातुं शक्यते.
किन्तु अहं चिन्तयामि अनुभवः कः इत्युक्ते तैलसंयोगेन पिण्डीभावम् अस्ति इति अनुभवः, तैले स्नेहः अस्ति इति न अनुभवः.
अहं सत्यम् अत्र अस्मिन् परिच्छेदे तादृशमेव दत्तमस्ति.
अनुभवः तु तैलम् उपयुज्य पिण्डीभावजनकत्वम् अस्ति इति अनुभवः. तस्मात् तर्कः किम् इति वयं चिन्तयामः चेत् यत् भवता उक्तं तत्र हो अन्य व्यतिरेकाभ्याम् ओ किमपि तैले अस्ति, वयं जानीमः यत् स्नेहः जले एव अस्ति, किन्तु अत्र पिण्डीभावः अस्ति, तर्हि तैले किमपि भवेत् येन स्नेहभावः इति भवेत् इति सर्वं तर्कः आगच्छति.
सत्यं, पिण्डीभावः तैलेनापि पिण्डीभावः साधयितुं शक्यते इति कृत्वा तत्र पिण्डे तैले अपि स्नेहः वर्तते वा. अहं मम मनसि किं चिन्तनम् आसीत् इति चेत् यदा तैलं वयं किं वदामि तत्र धारा इव पतति किल, अतः तत्र साक्षात् दृश्यते इति अहं चिन्तयामि. किन्तु अत्र अस्मिन् परिच्छेदे पिण्डीभावम् उपयुज्य एव तर्कः प्रचलति. आम् सत्यं तैलम् उपयुज्य पिण्डीभावः कर्तुं शक्यते. पिण्डीभावस्य कारणं तु स्नेहम् इति अस्माभिः निरूपितम्. अतः तैले पिण्डी स्नेहः स्नेहाख्यगुणः अस्ति वा इति चिन्तने सति नास्ति. तैलं तु पार्थिवद्रव्यमस्ति. तत्र जलांशस्य मिश्रणं कृत्वा अनेन एव तस्मिन् स्नेह स्नेहधर्मः विद्यते इति. सत्यं महोदय.
एतावत् प्रश्नः अस्ति वा केनापि कस्यापि? अस्तु अग्रे महोदय.
पिण्डीभावजनकत्वं दृष्ट्वा स्नेहः अस्ति इति सिद्ध्यति. स्नेहः अस्ति चेत् जलांशः अस्ति इति सिद्ध्यति. यतोहि स्नेहः जलस्य एव गुणः. अतः क्रमः एवं स्नेहस्य जलमात्रवृत्तित्वं पूर्वमेव संसाद्य पिण्डीभावः कस्मिंश्चित् पिष्टे अनुभूतः. पिण्डीभावस्य कारणं स्नेहः. अतः स्नेहः अपि अत्र भवेत्. स्नेहः जले एव. अतः अत्र जलम् अपि भवेत्. अधुना पिष्टेन सह तैलस्य संयोजनेन पिण्डीभावो जायते. अनेन अत्र स्नेहो वर्तते. तैलं तु पृथिवी अस्ति.
पृथिव्यां
च स्नेहः न सम्भवति इत्यस्मात् तैले विद्यमानः स्नेहः जलस्यैव तैले च जलभागोऽपि अस्ति इति पर्यवसितम्. इदानीम् अत्र यत् तर्कम् अस्माभिः इदानीमेव दृष्टं तत् साक्षात् दत्तमस्ति. अत्र पिण्डीभाव जनकत्वं पिण्डीभावजनकत्वं दृष्ट्वा स्नेहः अस्ति इति सिद्ध्यति. यत्र इदानीं तत्र राशिम् अपि च तैलं मिश्रणं कृत्वा पिण्डीभावः अस्माभिः क्रियते. तत्र पिण्डीभावजनकत्वं दृष्ट्वा तत्र स्नेहः अस्ति इति ज्ञातुं शक्यते. स्नेहः अस्ति चेत् तत् तस्य जलमात्रवृत्तित्वम् अस्ति इति कृत्वा तत्र जलांशः अस्ति इत्यपि ऊहा कर्तुं शक्यते. किमर्थम् इत्युक्ते स्नेहः जलस्य एव गुणः इति कृत्वा. अतः तर्कस्य क्रमः एतादृशं भवति. स्नेहस्य जलमात्रवृत्तित्वं पूर्वमेव संसाद्य आम् इदानीमेव पाठे अस्माभिः पठितं. स्नेहस्तु स्नेहस्य जलमात्रवृत्तित्वम् अस्ति इति. अतः तत् संसाधितम् अस्ति. इदानीं पिण्डीभावः कस्मिंश्चित् पिष्टे अनुभूतः. आम् तत्र पिण्डीभावः अस्ति. पिष्टे पिण्डीभावः अस्ति इति साक्षात् अनुभवज्ञानम् अस्ति. इदानीं पिण्डीभावस्य कारणं स्नेहः इति स्नेहाख्यगुणः इति वयं जानीमः. अत्र पिण्डीभावे स्नेहः भवेत् इति ज्ञातुं शक्यते. स्नेहः तु जले एव भवति इत्यपि वयं साधितम् इति कृत्वा अस्मिन् पिण्डीभावे जलं वर्तते इति वयं ज्ञातुं शक्यते. इदानीं जलं तु साक्षात् अस्माभिः न मिश्रितम् इति किं मिश्रितम् इत्युक्ते तैलमेव मिश्रितम् इति कृत्वा तैले जलांशाः वर्तन्ते इति तत्र ऊहां कर्तुं शक्यते.
तैले अपि स्नेहः वर्तते. तस्मात् जलांशेन एव तत् भवितुम् अर्हति.
आम् यतोहि तैले जलांशः भवेत्.
यतोहि तैले स्नेहः इति भाति. तैलं तु पृथिवी द्रव्यं, तर्हि जलांशः कुत्रचित् भवेत् तैले इति पर्यवसितम्. अस्तु प्रश्नः अस्ति वा? अग्रे रमप्रिया भगिनी अग्रिमपरिच्छेद.
अत्र विद्याधर्यां लिखितम् अस्ति यत् घृततैलादिसंयोगे सति तदाविधैव पिण्डीभावः अनुभूयमानोऽपि घृतादौ विद्यमानेन जलांशेन एव इति अन्वयव्यतिरेकाभ्यां जलमात्रवृत्तित्वं तत् कारणस्य स्नेहस्य अवधारयामः। अस्य च अर्थः कः इति परिशीलनीयः। यदि अस्य अर्थः अस्ति यत् ऋततैलादिसंयोगे सति तदाविध इव पिण्डीभावः अनुभूयमानः सदापि घृतादौ विद्यमानेन जलांशेन एव अति अन्वयव्यतिरेकाभ्यां पिण्डीभावस्य तत् कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् अवधारयामः इति तादृशः अर्थः अस्ति चेत् तर्कः प्रायः सम्यक्तया न प्रवर्तते। पुनः कथञ्चित् भिन्नरीत्या पठामः चेत् कार्यं तर्कम् अनुसृत्य भवति तच्च इदम्। अन्वयव्यतिरेकाभ्यां तत् कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् अतः कृतदैलादिसंयोगे सति तदाविध इव पिण्डीभावः अनुभूयमानोऽपि घृतादौ विद्यमानेन जलांशेन एव इति अवधारयामः। तत्र एकम् आस्ट्रिक्स् मार्क् अस्ति तत् कारणस्य अग्रे वा आम् प्रश्नः अत्र अयं यत् मूलवाक्ये अवधारयामः इति क्रियापदस्य अन्वयः केन सह जलांशेन एव इति अथवा जलमात्रवृत्तित्वम् प्रश्नः। अत्र यदा विद्याधर्यां वाक्यं लिखितमस्ति घृततैलादिसंयोगे सति तदाविद इव पिण्डीभावः अनुभूयमानो अपि घृतादौ विद्यमानेन जलांशेन एव इति अन्वयव्यतिरेकाभ्यां जलमात्रवृत्तित्वं तत्कारणस्य स्नेहस्य अवधारयामः इति वाक्यमस्ति विद्याधर्याम्। अत्र अर्थद्वयं दत्तमस्ति। प्रथम अर्थः अस्ति यदा वयं यदि वयम् एतदर्थं स्वीकुर्मः चेत् प्रथम अर्थः अस्ति यदा घृततैलादिसंयोगेन संयोगे सति तदाविध इव पिण्डी भावः अनुभूयमानः।
तथाविध इत्युक्ते
तथाविध इत्युक्ते यदा यदा वयं पूर्वं दृष्टवन्तः पृथ्वी गन्ध पृथ्वी तदाविध वा
जलपृष्ठपिण्डीभाव पश्यामः तथैव घृततैलसंयोगे पृष्ठे घृततैलसंयोगे पिण्डीभावम् अपि अनुभूतं भवति।
यथा जलसंयोगेन पिण्डीभावः अनुभूयते तथैव घृततैलादसंयोगेन तथाविध जलविध जलसंयोग इव
अनुभूयमानः। तथापि घृतादौ विद्यमानेन जलांशेन एव। एतत् कथं भवति इत्युक्ते घृतादौ घृततैलादौ यद् जलांशः कारणेन अस्ति तद् तदा तदा भवति। अन्वयव्यतिरेकाभ्यां पिण्डीभावस्य तत् कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् अवधारयामः। यदा वयं दृष्टवन्तः इदानीमेव कार्यमस्ति कारणमस्ति इति अन्वयः, कार्यं नास्ति चेत् कारणं नास्ति इति व्यतिरेकः,
कारणं नास्ति चेत् कार्यं नास्ति इति व्यतिरेकः
व्यतिरेकः
कार्यमस्ति कारणं भवेत् इति अन्वयः अन्वयव्यतिरेकाभ्यां पिण्डीभावस्य
तत् कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् अवधारयामः। पिण्डीभावस्य तत् कारणस्य इत्युक्ते एतद् यद्वयम् इदानीं दृष्टवन्तः जलतैलादि तदेव किल।
अत्र तत् इत्युक्ते पिण्डीभाव एव, पिण्डीभावस्य तत् कारणस्य पिण्डीभावकारणस्य स्नेहस्य कारणं किम्?
जलमात्रवृत्तित्वम् इति तत्र इति वयं जानीमः.
किन्तु अत्र किम् अस्ति एवं एवं चेत् एवं वाक्यस्य अर्थं स्वीकुर्मः चेत् किम् अवधारयामः इति प्रश्नः तत्र किञ्चित् क्लेशः भवति. जलमात्रवृत्तित्वम् अवधारयामः वा? जलमात्रवृत्तित्वं तु लक्षणवाक्ये अपि आसीत्. जलमात्रवृत्तित्वं पूर्वमेव संसाध्यं भवति, तर्हि भिन्नः अर्थः प्रायः अपेक्षितः इति अग्रे पठतु कृपया. इति तादृश अर्थः अस्ति चेत्
पुनः कथञ्चित् भिन्नरीत्या पठामश्चेत् कार्यं तर्कम् अनुसृत्य भवति, तच्च इदम् अन्वयव्यतिरेकाभ्यां तत् कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् अतः घृततैलादिसंयोगे सति तदाविधैव पिण्डीभावः अनुभूयमानोऽपि घृतादौ विद्यमानेन जलांशेन एव इव इति अवधारयामः. अत्र दत्तमस्ति यद् अन्वयव्यतिरेकाभ्यां तत्कारणस्य इत्युक्ते पिण्डीभावस्य, यदा भवान् उक्तवान् इदानीं पिण्डीभावकारणस्य स्नेहस्य, वयं जलमात्रवृत्तित्वम् इति पूर्वमेव जानीमः. जलमात्र स्नेहस्य जलमात्रवृत्तित्वम् इति लक्षणवाक्येन वयं पूर्वमेव ज्ञातवन्तः. अतः
अन्वयव्यतिरेकमपि वक्तुं शक्यते जलमात्रवृत्तित्वम् अस्ति इति. जलमस्ति चेत् स्नेहः अस्ति चेत् जलं भवेत्, जलं नास्ति चेत् स्नेहः न भवति इति अन्वयव्यतिरेक. अनेन तर्केण स्नेहस्य जलमात्रवृत्तित्वं संसाध्य ज्ञात्वा अग्रे
अतः घृततैलादिसंयोगे सति, यदा वयं घृततैलादिसंयोगः तद्भवति चेत् तदाविद इव पिण्डीभावः अनुभूयमानो अपि, यदा वयं पूर्वं दृष्टवन्तः पृथ्वी अंशः अस्ति घृततैलादि इति, तत्र संयोगे सति पिण्डीभावः अनुभूयमानो अपि घृतादौ विद्यमानेन जलांशेन एव, यदा घृतादौ जलांशः अस्ति इति कारणात् एव इति अवधारयामः इति वयं ज्ञातुं शक्नुमः. प्रश्नः अस्ति अवधारयामः इति क्रियापदस्य अन्वयः केन सह भवति, जलांशेन एव इति वा जलमात्रवृत्तित्वम् इति वा इति. मम अवगमनमस्ति जलांशेन एव इति, घृतादौ विद्यमानेन जलांशेन एव इति अवधारयामः.
यद्यपि वाक्ये वाक्ये किं लिखितं जलमात्रवृत्तित्वं तत्कारणस्य स्नेहस्य इति अवधारयामः इति लिखितं, किन्तु तादृश अन्वयः सम्यक् न भवति. यथा भवती उक्तवती जलांशेन इति अवधारयामः इति सम्यक् भवति. अत्र चिन्तनद्वयम् अत्र, यथा भवती उक्तवती अन्वयः जलांशेन एव इति तत्र गच्छति चेत् सम्यक् भवति, न जलमात्रवृत्तित्वम् इति पदेन अन्वयः न भवेत्. अस्तु, तत्र शुकवनमहोदयेन अपि एव भिन्न किञ्चित् उक्तं, तत् अधोभागे लिखितमस्ति, कृपया पठतु. तत् कारणस्य स्नेहस्य
तत्कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् अतः घृततैलादिसंयोगे सति तदाविद इव पिण्डीभावः अनुभूयमानो अपि अन्वयव्यतिरेकाभ्यां घृतादौ विद्यमानेन जलांशेन एव इति अवधारयामः इति अन्यविकल्पः. अन्यविध अन्वयः अस्ति तत्कारणस्य स्नेहस्य, यत् पिण्डीभावः इति कारणस्य स्नेहस्य जलमात्रवृत्तित्वं तत्तु वयं जानीमः. अतः घृततैलादिसंयोगे सति तदाविदैव पिण्डीभावः, यदा घृततैलादिसंयोग तदपि सम्यक् अनुभूयमानोऽपि अन्वयव्यतिरेकाभ्यां पिण्डीभावः अनुभूयमानो अपि इति अनन्तरमेव अन्वयव्यतिरेकाभ्यां घृतादौ विद्यमानेन जलांशेन एव घृतादौ विद्यमानेन जलांशेन एव इति अवधारयामः
इति
अन्यचिन्तनं
एतदपि साधु किञ्चित् भिन्नरीत्या किन्तु जल अवधारयाम इति पदस्य अन्वयः जलांशेन एव इति गच्छति किन्तु तत्र अन्वयव्यतिरेकाभ्यां घृतादौ जलांशेन इत्यपि किञ्चित् भिन्न रीत्या उक्तं केवलं अग्रे अनेन
अनेन परिवर्तनेन परिवर्तनेन च इति सङ्गच्छते घृततैलादिसंयोगे सति तदाविद इव पिण्डीभावः अनुभूयमानोऽपि घृतादौ विद्यमानेन जलांशेन एव इति अन्वयव्यतिरेकाभ्यां जलमात्रवृत्तित्वेन तत्कारणस्य स्नेहस्य अवधारयामः तदपि अन्यविध
अत्र जलमात्रवृत्तित्वम् अनुक्त्वा जलमात्रवृत्तित्वेन परिवर्तनं कृतं स्थूलाक्षरैः लिखितम् एकं पदम् केवलं तत् केवलम् एकः भेदः वृत्तित्वेन इति वदनेन किञ्चित् सरलं भवति तर्हि द्वितीयविभक्त्यां केवलं जलांशम् इति अस्ति जलांशेन इति अवधारयामः इति न द्वितीय किन्तु कर्मपदं जलांशेन एव इति अस्तु
महोदय द्वे चिन्तने किम् अस्ति एकम् अस्ति जलांशे स्नेह अस्ति तत् कारणे घटादौ घृततैलादि यदि पिण्डीभाव पश्यामः कस्मिन् व्यतिरेक अन्वय इति साधयामः त वयं जानीमः घृततैलादि जलांश जलांश अस्ति एकम् चिन्तनं द्वितीयचिन्तनं किम् अस्ति
जलमात्रवृत्तित्वम् अवधारयामः वा
अस्तु
तत् प्रथमं वाक्यं तत्र किं लिखितमस्ति अन्वय तृतीयपङ्क्तौ अन्वयव्यतिरेक अन्तिमपरिच्छेदे तृतीयपङ्क्तौ अन्वयव्यतिरेकाभ्यां पिण्डीभावस्य तत्कारणस्य स्नेहस्य जलमात्रवृत्तित्वम् अवधारयामः वृत्तित्वम् अवधारयामः इति तादृश अन्वयः इति दृश्यते किन्तु तत् सम्यक् नास्ति यतोहि जलमात्रवृत्तित्वं ज्ञातमेव अन्वयव्यतिरेकाभ्यां तद् ज्ञातं तद् ज्ञात्वा एव वक्तुं शक्यते ओ जलांशः भवेत् अत्र इति अस्तु साधु स्पष्टम्
आमाम्
अन्य प्रश्नः अस्ति वा कस्यापि अस्तु नो चेत् पुस्तके पुनः गच्छामः तत्र अग्रे एवं विधो अपि तत्र कं सरला भगिनी पठितुमिच्छति वा
अस्तु
एवं विधो
एवं विधोपि अयं स्नेहः न चक्षुरादिभिः ज्ञातुं शक्यः घ्राणरसनश्रोत्राणां प्रति नियता ग्राह्य गुणा अतिरिक्ते प्रसर नास्ति एव चक्षुषः त्वचः रूपस्पर्शातिरिक्तेषु सङ्ख्यादिषु अस्ति ग्राहकता तदेतत् रूपलक्षणे निरूपितम् परन्तु चक्षुषा त्वचा अवधानविशेषे अपि एकाग्रे अपि न स्नेह गृह्यते इति पिण्डीभावरूपकार्यविशेषणस्य अनुमातव्यः भवति अत एव न्यायबोधिनीग्रन्थे नवामतोपन्यासे स्नेहस्य पिण्डीभावं प्रति कारणत्वं निराकृत्य स्नेहस्वीकार एव कृताक्षितः तथा च स्नेहस्य जलमात्रवृत्तित्वस्य प्राचीनैः स्वीकारे अपि तस्य चक्षुर आदिना अग्रहणात् तस्य सत्त्वे एव नवीनां विवादात् जललक्षरत्वेन न सह निर्दिष्टः, किन्तु त्वत् इन्द्रियग्राह्य सर्वजानसाक्षिकशीतस्पर्श एव निर्दिष्टः इति उक्तं जललक्षरं शीतस्पर्शवत्यः आपः इति प्रकारस्तु सुगमोऽपि तद् तद्रसिकेन मया प्रदर्शितः. इदानीम् अहं चिन्तयामि जलसार्थक्यम् इति दत्तमस्ति. एवं
नूतनविषयः भिन्नविषयः.
एवं विध अपि वयं स्नेह न चक्षुरादिभिः ज्ञातुं शक्नुमः. वयं स्नेह जले या स्नेह गुण अस्ति तत् चक्षु वा आदि अद्य इन्द्रैः न गृहीतुं शक्नुमः.
अत्र एवं विधोपि इत्युक्ते किम्? एवं विधोपि
एवं यथा पूर्वं दत्तमस्ति जलमात्रवृत्ति त्वं लघ्रतैलादसंयोगे पृष्ठे पिण्डीभाव द्रष्टुम् अस्ति तत् अन्वयव्यक्तिरिक्ताभ्याम् अनुमति भवति जलमात्रवृत्ति त्वं वा जलांशै घृततैलादि अस्ति.
तथा प्रायः नास्ति अत्र. एवं विद्वापि स्नेहः यथा एतावता चर्चितम् इत्युक्ते जलमात्रवृत्तित्वं पिण्डीभावः निमित्तकारः तत्सर्वं स्नेहविषये यत्किमपि एतावता उक्तं तथापि
केवलं जलवृत्ति जले स्यात्.
हा सर्वं यदुक्तं सर्वं स्नेहविषये एतावता यत्किमपि उक्तं तथापि स्नेहः एवम् अस्ति तथापि अयं स्नेहः चक्षुरादिभिः न ज्ञायते.
न ज्ञायते घ्राणरसनश्रोत्राणां प्रतिनियतग्राह्यगुणातिरिक्ते प्रसरः नास्ति एव. प्रतिनियतग्राह्यगुणातिरिक्ते अहं विस्मरामि
तत्र पूर्वं किं पञ्च नवचत्वारिंशत्तमे पुटे एकः कोष्टकः अस्ति तत्र घ्राणरसनश्रोत्राणां प्रतिनियतग्राह्यत्वम् इत्युक्ते गन्धः केवलं घ्राणेन्द्रियेण ज्ञायते, रसं केवलं किं जिह्वान्द्रियेण ज्ञायते, शब्दः केवलं श्रोत्र इन्द्रियेण ग्राह्यते इति. एकमेकम् इन्द्रियम् एकमेकं गुणं गृह्णाति इति प्रतिनियतग्राह्यत्वं. किन्तु प्रसरः इत्युक्ते प्रसरः
नास्ति एव. किन्तु स्नेहस्य केनापि इन्द्रियैः गृहीतुं नास्ति इति प्रसर नास्ति इति.
प्रसर इत्युक्ते ग्राहकशक्ति नास्ति. घ्राणरसने श्रोतानां तैः इन्द्रियैः
स्नेह गृहीतुं न गृह्यते
यतोहि ते केवलम् एकमेकम् इन्द्रियम् एकमेकं गुणं गृह्णाति.
अस्तु
तर्हि अग्रे चक्षु त्वचः का स्थितिः?
चक्षुषः त्वचः रूपस्पर्शातिरिक्तेषु सङ्ख्यादिषु अस्ति ग्राहकता. चक्षुषा त्वचा रूपस्पर्श अतिरिक्तसङ्ख्या चक्षुषा रूप ग्राह्यते, त्वचा स्पर्शं ग्राह्यते, किन्तु रूपस्पर्श अतिरिक्त एवं अपि सङ्ख्या ग्राह्यते चक्षु त्वचा तयोः
न केवलं संख्या किन्तु अन्य चक्षुषा किं तत्र बहवः गुणाः चक्षुषा
संख्या आदि ग्राहकता भवति तत् एतत् रूपलक्षणे निरूपितं रूपलक्षणे चक्षुषा
रूपलक्षणे तत्र दलसार्थक्यम् इति पठितं चक्षुर्मात्रग्राह्यगुणः रूपं तत्र किमर्थं चक्षुर्मात्रमिति अस्ति किमर्थं गुणः इति अस्ति किमर्थं चक्षुषा ग्राह्यत्वम् अस्ति
दलसार्थक्यं वयं चिन्तवन्तः यदि चक्षुर्मात्र अस्ति न संख्या इति अतिव्याप्ति आगच्छति वदामः अन्यैः अतिव्याप्ति आगच्छति अस्तु तदेतद् रूपलक्षणे निरूपितं परन्तु चक्षुषा त्वचा वा अवधानविशेषेपि एकाग्रे अपि न स्नेहगृहति इति पिण्डिभावरूपकार्यविशेषसह अनुमतिव्य भवति परन्तु अवधानविशेषेपि यदि न अहं न
अस्तु शुभवान् महोदय अस्ति वा तत्र वदति वा परन्तु चक्षुषा तत्र आरभ्य चक्षुषा त्वचा वा अवधान
परन्तु चक्षुषा त्वचा वा अवधानविशेषे अपि एकाग्र्ये अपि न स्नेहः गृह्यते ऐकाग्र्ये अपि इत्युक्ते इदानीं चक्षुषा वा त्वचा वा तत्र अवधानं कृत्वा जले अवधानं कृत्वा ऐकाग्र्यं कृत्वा पश्यामश्चेत् नो चेत् स्पर्शयामश्चेत् अपि तत्र स्नेहः इति गुणः न ग्रहीतुं शक्यते एव इति न स्नेहः गृह्यते इति पिण्डीभावरूपकार्यविशेषेन सह अनुमातव्यः भवति इति कृत्वा तत्र पूर्वस्मिन् वाक्ये घ्राणरसनश्रोत्राणां प्रतिनियतग्राह्यत्वम् एकमेव गुणं तैः ग्राह्यते इति अस्ति चक्षुषा चक्षुः अपि च त्वक् ते अधिक तत्र सङ्ख्यादि गुणाः द्वीन्द्रियग्राह्याः किन्तु इदानीं स्नेहाख्यगुणः न चक्षुषा वा त्वचा वा ग्रहीतुं शक्यते इति कृत्वा स्नेहाख्यगुणः अस्ति जले अस्ति इति कथं ज्ञातुं शक्यते इति चेत् अनुमान अनुमानप्रमाणेन एव ज्ञातुं शक्यते इति अस्ति अनुमातव्यः
ऐकाग्र्य अपि इत्युक्ते दीर्घचिन्तनमपि दीर्घप्रयत्नं दीर्घविस्तारेण चिन्तनं कृत्वापि चक्षुषा त्वचा वा न गृह्यते किन्तु
चिन्तनम् इति पदं प्रायः न सम्यक् इति अहं चिन्तयामि तत्र ऐकाग्र्यम् इत्युक्ते तत्र प्रत्यक्षं भवेत् किल चिन्तनम् इति चिन्तयामि चेत् अनुभव तत् अनुमाने अनुमानं प्रति गच्छति
सत्यं चिन्तनं न किन्तु प्रत्यक्षं
प्रयत्नं दीर्घप्रयत्नं
सावधानतया
कान्सन्ट्रेशन् इति अस्ति
एकाग्रचिन्तनं तथापि एकाग्र तथापि न गृह्यते किन्तु पिण्डीभावमिति कार्यं ज्ञात्वा अनुमाने गृह्यते
पिण्डीभावः इति कार्यः प्रत्यक्षेन ज्ञातुं शक्यते, तत् कार्येण कारणम् अनुमातव्यं भवति.
कार्यविशेषणम् इत्युक्ते अन्येन अन्येन गुणेन तत् न सम्भवति. पिण्डीभावः तर्हि किमपि गुणः भवेत्.
आम्
अस्तु, अग्रे शुक्रमध्ये अत एव.
हा, अत एव न्यायबोधिनीग्रन्थे नव्यमतोन् मतो मतोपन्यासे स्नेहस्य पिण्डीभावं प्रति कारणत्वं निराकृत्य स्नेहस्वीकारे एव कटाक्षितः. इदानीं नव्यनैयायिकाः सन्ति, तेषां ग्रन्थः अस्ति न्यायबोधिनी इति. तत्र स्नेह आख्य गुणस्य पिण्डीभावी पिण्डीभावं प्रति कारणत्वमेव निराकृतं, कटाक्षितः इत्युक्ते औदासीन्यं कृतम् इति. तेन स्वीकृतवन्तः स्नेहस्य कारणत्वं पिण्डीभावं प्रति, ते त्यक्तवन्तः. पिण्डीभावं प्रति स्नेहस्य कारणं नास्ति इति तेषां मतम्.
न केवलं तथा, किन्तु स्नेहमेव ते न स्वीकुर्वन्ति.
आम्,
एकमस्ति स्नेहः अस्ति किन्तु पिण्डीभावं प्रति कारणं नास्ति इति एकं चिन्तनं. स्नेहः स्वीकार एव नास्ति चेत् कथम्?
आम्, स्नेहस्वीकार एव कटाक्षितः इत्युक्ते तत्र स्नेह आख्यगुणः एव तैः न अङ्गीकृतम्
इति भाति.
तथा च स्नेहस्य जलमात्रवृत्तित्वस्य प्राचीनैः स्वीकारे अपि तस्य चक्षुरादिना अग्रहणात् इति प्रथमं. तत्र यद्यपि प्राचीननैयायिकाः स्नेह आख्यगुणः स्वीकृतवन्तः पिण्डीभावं प्रति कारणत्वं वक्तव्यम् इति तत्र वक्तव्यम् अस्ति. अतः स्नेह आख्यगुणः जले वर्तते इति अनुमानेन ते अनुमानप्रमाणेन ते वदन्ति. यद्यपि तद्वदन्ति किन्तु चक्षुरादिना अग्रहणात्, तद्वयम् इदानीमेव दृष्टवन्तः, प्रत्यक्षेण स्नेहः यदा कदापि न ज्ञातुं शक्यते, येन केनापि न ज्ञातुं शक्यते इति कारणात् तस्य सत्त्वे एव नवीनानां विवादात्. इदानीं स्नेहः अस्ति वा न वा इति, तत्र अस्ति वा न वा इति नास्ति. नवीननैयायिकाः किं वदन्ति, स्नेहाख्यगुणः नास्ति एव, तस्य सत्त्वमेव ते अङ्गीकुर्वन्ति इत्यपि अस्ति इति कृत्वा जललक्षणत्वेन न सः निर्दिष्टः. तत्र जलस्य लक्षणं यदा स्वीकृतं तस्मिन् लक्षणे स्नेहं स्नेहाख्यगुणः न निर्दिष्टः अस्ति.
अतः सः इत्युक्ते किं? सः इत्युक्ते सः निर्दिष्टः,
सः इत्युक्ते प्राचीने प्राचीनाः प्राचीन ओ न क्षम्यतां, स्नेहः जललक्षणत्वेन न सः निर्दिष्टः इत्युक्ते स्नेहः न निर्दिष्टः. जललक्षणे स्नेहाख्यगुणः न अन्तर्भूतः इति प्राचीननैयायिकाः यद्यपि स्नेहाख्यगुणः वर्तते, तस्य अस्तित्वम् अस्ति, अपि च पिण्डीभावं प्रति तस्य कारणत्वम् अस्ति इति स्वीकृतवन्तः, तथापि जललक्षणे स्नेहस्य निर्दिष्टं न कृतं. किन्तु इत्युक्ते जललक्षणे त्वगिन्द्रियग्राह्यः सर्वजनसाक्षिकः शीतस्पर्शः एव निर्दिष्टः इति उक्तं. जललक्षणं शीतस्पर्शवत्यः आपः. इदानीं जलस्य लक्षणं शीतस्पर्शवत्यः आपः इत्येव दत्तं. तत्र त्वचा सर्वे ज्ञातुं शक्यते जले शीतस्पर्शम् अस्ति इति कृत्वा तदेव जलस्य लक्षणे निवेशितं, न तु स्नेहाख्यगुणः इति अस्ति.
यद्यपि जलमात्रवृत्तिः स्नेहः, तथापि जल
लक्षणेन निवेशितम्
उक्तम् अत्र प्रश्नः वर्गे आगतः इत्युक्ते प्राचीनानां प्राचीनाः कथं ज्ञातुं शक्नुवन्ति यत् नवीननैयायिकाः स्नेहं नाङ्गीकुर्वन्ति इति तथा किमर्थं प्राचीनैः स्नेह न उक्तं यद्यपि ते न जानन्ति आगामिवर्षे नवीननैयायिकाः न इति तत्र तेषां किमपि आसीत् प्रायः स्नेहः प्रायः तद् चक्षुराधुना अग्राह्यम् अस्ति तर्हि सारल्य किं लाघवं किन्तु सर्वजनसाक्षिका अस्ति शीतस्पर्शः तदर्थं न उक्तं प्रायः इति
आमां तदेव अहमपि चिन्तयामि नवीननैयायिकाः न अङ्गीकृतवन्तः न अङ्गी करिष्यन्ति इति कृत्वा अत्र त्यक्तम् इति नास्ति किन्तु तद् सर्वजनसाक्षिकं नास्ति केवलम् अनुमानेन एव ज्ञातुं शक्यते इति कृत्वा तत्र साक्षात् लक्षणे न स्थापितम् अपि च महोदय यद्यद् लक्षणम् अस्ति तत्सर्वं लक्षणे भवेत् इति नियमः नास्ति
सत्यं
अतः शीतस्पर्शवत्यः आपः इति वदामश्चेत् पर्याप्तं भवति
सत्यं सत्यं
हा
अस्तु अग्रे अत्र प्रश्नः अस्ति वा एतावता अत्र एकं करपत्रम् इतोपि प्रेषितं महोदयेन किम् अष्टादशतम अस्ति वा पुरतः
अत्र चित्रं निरूपणीयं वा महोदय
वदतु कृपया पूर्वं दृष्टं किन्तु पुनः वदतु कृपया
चित्रप्रकारस्तु सुगमोऽपि तद् रसिकेन मया प्रदर्शितः इदानीं पिष्टनिष्ठ धारनिष्ठकार्यतानिरूपितकारणताश्रयः विलक्षणसंयोगः पिण्डीभावः पुनः विलक्षण पिण्डीभावनिष्ठकार्यतानिरूपितकारणताश्रयः स्नेहः इति भवति इत्र अत्र अवच्छेदकसम्बन्धं न उक्तम्
भवान् वदतु कार्यतावच्छेदक पिण्डीभाव दक्षिणभागे किम् अस्ति कार्यतावच्छेदकसम्बन्धः
पिष्टनिष्ठधारणनिष्ठ कारण
दक्षिणभागे पिण्डीभावं तत्र आरभ्य पिण्डीभाव यत् कार्यता अस्ति तत्र कार्यतावच्छेदकसम्बन्धः कः
संयोगः भवति किल
पिण्डीभावः कार्यं
पिण्डीभावः कार्यम्
अधिकरणं किं पिष्टराशिः
आम्
तत्र पिण्डीभावः पिष्टराशौ
मध्ये द्वयमपि द्रव्यम् इति कृत्वा तयोः मध्ये संयोगः एव भवितुम् नास्ति वा
पूर्वमुक्तं यत् पिण्डीभावनिष्ठकार्यतावच्छेदकसम्बन्धः समवायः
ओ पिण्डीभावनिष्ठकार्यतावच्छेदकसम्बन्धः समवायः आम्
पिण्डीभावः अस्ति राशौ पिण्डीभावः भवति ते भिन्नद्रव्यं नास्ति तत्र राशिः अस्ति तत्रैव पिण्डीभावः भवति यतः कपाले घटमागच्छति तथाविधसम्बन्धः अस्ति पिष्टिराशि पिण्डिभावयोः तदस्ति कार्यतावच्छेदक अवच्छेदकसम्बन्धः पुनः तत्र कारणता कथमस्ति
कारणता तु इदानीं तत्र अधिष्ठानं किम् इति चिन्तनीयं
पिष्टिराशि
ह्यस्तनवर्गे आसीत् तदा
पिष्टराशि एव अत्र अधिकरणम्
पिष्टराशि अधिकरणमस्ति चेत् इदानीं स्नेहः जले वर्तते जले स्नेहस्य स्नेहे एव कारणता अस्ति स्नेहस्तु जले एव वर्तते जलस्तु पिष्टराशौ संयोगसम्बन्धेन अस्ति
hmm. जलाश्रयसंयुक्तत्वं
स्वाश्रयसंयुक्तत्वं स्नेहः जले अस्ति स्व इति स्नेहः स्वाश्रयं जलं जले संयुक्तः अस्ति पिण्डिभावः
न तत्र पिण्डीभावः इति नास्ति स्व आश्रयसंयुक्तः पिष्ठराशिः स्वयाश्रयसंयुक्तः पिष्ठराशिः पिष्ठराशौ पिण्डीभावः विद्यमानः अस्ति समवायसम्बन्धेन
तत्र नूतनकरपत्रं पठामः वा नो चेत् अत्र स्थगयित्वा आगामि
कियत् अस्ति बृहत् अस्ति चेत् अनन्तरं पठामः किञ्चिदेव
बृहत् अस्ति दीर्घ अस्ति अतिदीर्घ अस्ति अस्तु अत्रैव भिन्नविषयः आरम्भं भवति तत्र स्नेहस्य प्रत्यक्षग्राह्यत्वं पिण्डिभावप्रसङ्गे इति तत्र शीर्षकम् अस्तु न प्रेषितवान् अहं न ज्ञातवान् यथा समयः यथा भवति इति किन्तु किमर्थं वर्गे तत्र अन्तिमवाक्यमासीत् तत् घृततैरादसंयोगे सति तद् वाक्यं यद् अस्ति तस्मिन् विषये दीर्घा चर्चा अभवत् बहवः तत्र अभिप्रायाः तत्र उक्ताः तदर्थं किन्तु अत्र वयं रिव्यू कुर्मः तदर्थं किञ्चित् शीघ्रम् अस्माभिः कृतम् अत्र नूतनविषयः आरम्भं भवति तस्मात् मम चिन्तनमस्ति अत्र भवन्तः स्थगयित्वा आगामिसप्ताहे नूतनविषयः इति आरम्भं कुर्मः सर्वे अङ्गीकुर्वन्ति
पुनः वक्तव्यं भवति
अस्तु
अस्तु
धन्यवादः शुभरात्रिः
धन्यवादः